इन्द्रः पोर्भिदातिरद्दासवर्कैर्विदद्वसुर्दजमानो विशत्रोन् ब्रह्मजोतस्तन्वा अववृधानो भोरिदात्र आपृढद्रोदसी उभे मखस्य तेत विषस्य प्रजोतिमिजर्म् विवाचममृता जभूषन् इन्द्रक्षितेनामसि मानुषीणाम् विषान्दैवीनामुतपोर्भजावा इन्द्रो वृत्रमवृणोच्छर्धनेतिः प्रमाजिना ममिनाद्वर्पणेतिः अहन्व्यम् समुषधग्मनेष्वाविर्धेना अकृणोद्राम्याणाम् इन्द्रस्पर्शा जनजन्नः निजिगाजोषिग्भिः प्रदना अभिष्टिः प्रारोच जन्मन वेकेतुमह्नामविन्दज्योतिर्बृहतेरणाज इन्द्रस्तु जो बर्हणा अविवेशनृवद्दधा नो नर्या पुरोणि अचेतयद्भिज इमा चरित्रे प्रेमम् वर्णमतिरच्छुक्रमासाम् महो महानिपनयन्त्यस्येन्द्रस्य कर्म सुकृता पुरोणि व्रजनेन व्रजिनान् सम्बिपेशमाजाभिर्दस्योऽङ्ग्रभिभोद्योजाः युधेन्द्रो मह्नावरिवश्चकार देवेभ्यः सत्पतिश्चर्षडिप्राः विवस्वतः सदने अस्य तानि विप्रा उक्थेभिः कवयो गृणन्ति सत्रासाहम् वरेण्यम् सहोदाम् ससवाम् संस्वरपश्च देवीः ससा नजः पृथिवेन्द्यामुते मामिन्द्रम् मदन्त्यनुधीरणा सह ससानात्या अङ्कुतसौर्यम् ससानेन्द्रः ससानपुरभोजसङ्गाम् हिरण्ययमुत भोगम् ससानहत्वेदस्योन्प्रार्यम् वर्णमापत इन्द्र ओषधीरसनोदः निवनस्पतेऽङ्ग्रसनोदन्तरिक्षम् बिभेदफलम् ननु देवि वाचोऽथ भवद्दमिताभिक्रतो नाम् शुनम् हुवेम मघवा नमिन्द्रमस्मिन्भरे नृतमम् वाजसातौ शृण्वन्तमुग्रमोतये समत्सघ्नन्तम् व्रत्राणि सञ्जितन्धनानाम्